गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः।
धन्यवादः भगिनि। धन्यवादः सर्वेभ्यः नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं तत्र नूतनपुस्तकं पुस्तकस्य पठनम् आरब्धम् अस्ति। तत्र गीताप्रवेशः इति पुस्तकं तत्र वयं प्रथमपाठं पठितवन्तः। प्रथमपाठस्य मूलविषयः साक्षात् विषयः अस्ति तत्र सन्धिः इति। किन्तु एतावत् तत्र वयं तत्र भगवद्गीतायाः अपि तत्र अष्टादशसङ्ख्यायाः प्रशंसा या एतत् सर्वं वयं पठितवन्तः तत्र आरम्भे। तत्र कथं तत्र भगवद्गीतायामपि महाभारते अपि तत्र अष्टादशसङ्ख्यायाः महत्वम् अस्ति। तत्र बहुत्र तत्र अष्टादशसङ्ख्या दृश्यते इति। इदानीं तत्र अग्रे सरामः। तत्र अग्रे किं भवति इत्युक्ते तत्र अग्रे तत्र माहेश्वरसूत्राणि पठामः। तदनन्तरं तत्र प्रत्याहारः इत्युक्ते कः, तदनन्तरं तत्र सन्धिकार्ये किं किम् अस्ति इति एतत् सर्वं पठामः। मध्ये मध्ये तत्र सन्धेः विषयस्य पठने मध्ये मध्ये तत्र स्वरूपमहोदयस्य करपत्रं तत्र व्याकरणविषये अपि तद् नाम पाणिनीनां रचितं तत्र पाणिनिना रचितानि सूत्राणि यानि सन्ति तेषां तत्र परिचयत्वेन तत्र किञ्चित् पठनमपि भवेत् इति इच्छा अस्ति। अस्तु तर्हि आरम्भं कुर्मः। तर्हि तत्र प्रथमपुटं पठितवन्तः, अपि तत्र कटपयसङ्ख्या क्रमः कः अस्ति इति अपि वयं पठितवन्तः। इदानीम् अग्रे सरामः। तत्र द्वितीय पुटे तत्र अभ्यासः अस्ति। तर्हि तत्र शुभभगिनी आरम्भं करोति वा?
आं महोदय। इदानीम् अभ्यासः, प्रश्नानाम् उत्तरं लिखत। श्रीमद्भगवद्गीता कस्मिन् ग्रन्थे अन्तर्गतः भागः इति प्रश्नः। तत्र श्रीमद्भगवद्गीता महाभारतम् इति ग्रन्थे अन्तर्गतः भागः अथवा तत्र तदेव महोदय।
महाभारत इति ग्रन्थे अथवा महाभारतग्रन्थे अन्तर्गतः भागः
अस्ति।
समीचीनं भगिनि। तदेव अस्ति। अस्तु अग्रे नरेश महोदय।
आं महोदय। गीताभागः महाभारतस्य कस्मिन् पर्वणि अस्ति? गीताभागः महाभारतस्य भीष्मपर्वणि अस्ति।
तत्र पर्वणि इति विभक्ति का तत्र?
सप्तमी।
सप्तमी। समीचीनं महोदय। तत्र प्रथमविभक्ति एकवचने किं भवति?
पर्वन्
पर्वण् इति प्रातिपदिकं, पर्व इति एव इति पर्व इति चिन्तयामि महोदय।
प्रथमविभक्ति पर्वणः।
पर्वणः इति नास्ति,
पर्वपर्वणि पर्वाणि।
पर्वकर्माणि इव।
अस्तु पर्वाणि।
तत्र अत्र पर्वणि, तत्र पर्वाणि प्रथमविभक्तां विभक्त्यां। समीचीनम्। अस्तु अग्रे तत्र उषाभगिनी प्रथमा। उषाभगिनी,
मनुष्येषु श्रेष्ठः कः? मनुष्येषु श्रेष्ठः अर्जुनः अस्ति।
मनुष्येषु अर्जुनः श्रेष्ठः अस्ति। समीचीनम्। अस्तु इदानीं तत्र उमा मीनाक्षी भगिनि।
महाभारतग्रन्थस्य पूर्वतननाम किम्? पूर्वतननाम जयः इति।
जयः इति। समीचीनम्। अस्तु तर्हि तत्र हर्षदा भगिनी अपि अस्ति। नमस्कारः भगिनी, हर्षदा भगिनी। भवती अग्रे। नमस्कारः भगिनी। अग्रे
बहूनां कथोपकथादीनां योजनेन जयः केन नाम्ना विख्यातम् अभवत्? बहुना कथोपकथादीनां योजनेन जयः महाभारतनाम्ना विख्यातम् अभवत्।
महाभारतनाम्ना विख्यातम् अभवत्। समीचीनम्। हा अस्तु, अग्रे इदानीम् उषा भगिनी द्वितीया।
अस्तु महोदय। महाभारते कस्याः संख्यायाः अतीव प्राशस्त्यम् अस्ति? महाभारते अष्टादश इति संख्या अतीव प्राशस्त्यम् अस्ति।
हा, संख्यायाः, तत्र अष्टादश संख्यायाः,
संख्यायाः अतीव प्राशस्त्यम् अस्ति।
हा, प्राशस्त्यम् अस्ति। समीचीनं भगिनि। हा, उत्तमम्। अस्तु, अग्रे पल्लवी भगिनि, अग्रिम अभ्यासः।
कति सन्ति इति लिखत। महाभारतग्रन्थे पर्वाणि अष्टादश।
हा, अष्टादश पर्वाणि
सन्ति।
समीचीनम्। हा, अपि अग्रे तत्र, हा, शोभा भगिनि।
आम् महोदय। कति सन्ति इति लिखत। महाभारतग्रन्थे पर्वाणि,
तत्कृतं
क्षमतां, महाभारतयुद्धे अक्षौहिण्यः अष्टादश अक्षौहिण्यः सन्ति।
सन्ति, समीचीनम्। अस्तु, नरेश महोदय।
युद्धदिनानि तदपि युद्धदिनानि अष्टादश युद्धदिनानि सन्ति।
अष्टादश युद्धदिनानि सन्ति, नाम तत्र युद्धम् अष्टादशदिनानि यावत् प्रवृत्तम् आसीत्। समीचीनम्। अस्तु, अग्रे हर्षदा भगिनि, अग्रे।
आम् महोदय। गीतायाम् अध्यायानां संख्या, गीतायाम् अध्यायानां संख्या अष्टादश अस्ति।
अष्टादश अस्ति, समीचीनम्। हा, अस्तु, इदानीं तत्र, हा, सन्धियुक्तानि पदविभागः इति तत्र प्रायशः तत्र अग्रे कुर्मः, यतोहि इदानीं तत्र अथवा तत्र प्रायशः, अस्तु, एकवारं कुर्मः तदपि। अस्तु, तर्हि तत्र, हा, पल्लवी भगिनी, तत्र भवती एव तत्र किञ्चित् पठति वा अग्रिम अभ्यासः।
आम्, पाठे स्थूलाक्षरैः मुद्रितानि पदानि आवरणस्थितानि च पदानि यथोदाहरणं रिक्तस्थाने लिखतु। सन्धियुक्तानि पदविभाग, एष भागोऽस्ति, एषः भागः अस्ति,
तथैव तत्र अग्रे अपि किं किम् अस्ति इति पाठे दृष्ट्वा वदतु।
इत्येतस्य, इति एतस्य, एष भारते, एषः भारते, प्राचीनकालात् आगतः, महाभारतस्यैव, महाभारतस्य एव, स एव, सः एव, महद्रूपं, महत् रूपं, महाभारतम् इति, क्षम्यतां, महाभारतमिति, महाभारतम् इति, इत्यस्याः, इति अस्याः, युद्धकर, क्षम्यतां, युद्धम् अकुर्वन्, अष्टादश अध्यायाः
इति अस्ति। समीचीनं भगिनि। हा, अग्रे तत्र सन्धिकार्यात् प्राक् तत्र आदेशः, लोपः, आगमः इति तत्र तेषां तत्र परिचयं प्राप्त्वा पुनः अस्य पुटे यानि पदानि सन्ति तेषां तत्र तत्र प्रत्येकं पदे तत्र किं किं कार्यम् अस्ति इति परिशीलयामः। समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे तत्र उषा भगिनी इदानीं अग्रे तत्र।
आं महोदय। पाठं पठित्वा रिक्तस्थानानि पूरयत। भगवन्तं नारायणं नमस्कृत्य।
न न भगवन्तं नारायणं
भगवन्तं नारायणं मनुष्येषु अर्जुनं
श्रेष्ठम् अर्जुनम्
मनुष्येषु श्रेष्ठम् अर्जुनम् देवीं सरस्वतीं व्यासमहर्षीं च नमस्कृत्य ततः ततः महाभारतम् इति श्लोकः
जयः इति
जयः इति जयः इति ग्रन्थस्य वाचनं करणीयम्
वाचनं नाम पारायणं
पारायणं करणीयम्
समीचीनं वाचनं नाम पारायणं तदा एव करणीयं नाम तत्र भगवन्तं नारायणं नमस्कृत्य मनुष्येषु श्रेष्ठम् अर्जुनं नमस्कृत्य देवीं सरस्वतीं नमस्कृत्य व्यासमहर्षिमपि नमस्कृत्य तदा एव तत्र जयः ग्रन्थस्य पारायणम् अस्माभिः करणीयम् अत एव तत्र तेषां चित्राणि दत्तानि सन्ति खलु मध्ये तत्र पुस्तकमस्ति अपि ग्रन्थः अस्ति अपि अस्तु समीचीनं भगिनि अस्तु अग्रे इदानीं तत्र उषा भगिनी पेन्सिल् भगिनी उषा भगिनी सुजाता भगिनी नमस्कारः भगिनि
महोदय अहमपि अस्मि
आमामां क्षम्यतां भगिनी वेदा भगिनी अस्तु अस्तु अग्रे तत्र उषा भगिनी भवती पठतु तदनन्तरं सुजाता भगिनी अनन्तरं वेदा भगिनी
यथोदाहरण हरणं संयोज्य यत् चैव इति यथा उदाहरणं संयोजयत् चैव इति च योगः एव नरोत्तमम् इति नरयोग उत्तमं ततो इति ततः विसर्गेण
समीचीनं
जयं जयमुदीरयेत् इति जयं योगः उदीरयेत् नारायणम् अत्र अनुस्मरेण अस्ति नारायणम् इति मकारेण मकारः अनुस्वारः भवति नारायणम् इति सरस्वतीम् अनुस्वारेण अस्ति सरस्वतीम् इति विद् मकारेण अन्तिममकारेण एवमेव नरम् एवमेव अन्तिममकारेण देवीम् अपि एवमेव देवीम् अन्तिममकार
तत्र अनुस्वारस्थाने मकारः दर्शितम् अस्ति समीचीनं भगिनि उत्तमम् अस्तु इदानीं तत्र समीचीनं भगिनि अस्तु इदानीं तत्र अग्रे तत्र सुजाता भगिनी अग्रे पठति वा इदानीं तत्र भगवद्गीतायाः श्लोकः अस्ति
श्रीमद्भगवद्गीतायाः निम्नलिखितेषु श्लोकेषु स्थूलाक्षरपदानि सावधानं पठत पश्येताम् पाण्डुपुत्राणाम् आचार्यमहतीं च मुम् अत्र अस्ति पश्येताम् पाण्डुपुत्राणाम् आचार्य यूढम् द्रुपदपुत्रेण तव शिष्येन धीमता
यत्र पश्यैतां पाण्डुपुत्राणाम् आचार्य इति तत्र अधोभागे तत्र युक्तानि पदानि नियुक्तानि पदानि इति वियुक्तानि पदानि इति अस्ति खलु तद् एकवारं पठतु
पश्यैतां पाण्डुपुत्राणाम् आचार्यम्
तत्र रक्तवर्णे दत्तम् अस्ति खलु युक्तानि पदानि
आम् महोदय पश्य एताम् अस्ति पश्येताम् वृद्धिसन्धि भवति पाण्डुपुत्राणाम् पाण्डुपुत्राणां योगः एव सन्धि नास्ति
समीचीनं समीचीनं पाण्डुपुत्राणां योगः आचार्य इति समीचीनं भगिनि तत्र अन्य कोऽपि समीचीनं भगिनि तत्र वेदा भगिनी
धन्यवादः
हा समीचीनं भगिनि हा वेदा भगिनी इदानीं तत्र अस्मिन् श्लोके किञ्चित् वदति वा यत् अवगच्छति महतीं चमूं
पश्येतां पाण्डुपुत्राणाम् आचार्य महतीं चमूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता इत्युक्ते एतां महतीं पाण्डुपुत्राणाम् आचार्य पश्य
आचार्य इति किमस्ति सम्बोधनं
सम्बोधनं आचार्य पाण्डुपुत्राणां महतीं चमुं पश्यतां पश्ये पश्य एतां पाण्डुपुत्राणां महतीं चमुं पश्य
इति उत्तमं भगिनि आचार्य एतां
पाण्डुपुत्राणां महतीं चमुं
पश्य पश्य इति प्रथमभागः समीचीनं भगिनि चमुम् इत्युक्ते
चमु मीन्स् आर्मि
महतीं चमूम् इति तत्र विभक्ति का तत्र
द्वितीया विभक्ति कर्मपद
समीचीनं भगिनि अस्तु अग्रे
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता किमस्ति तत्र व्यूढां इत्युक्ते व्यूह वा व्यूहः वा
न न तत्र कृतम् इति अर्थे व्यूढां
ओके
तत्र प्रत्येकदिनं तत्र व्यूहः भिन्नभिन्नः भवति खलु
आम् आम्
हा किन्तु तत्र तस्य निदर्शनं कोऽपि कुर्यात् खलु तत्र यः कृतवान् तत्र सः तव शिष्यः भव तत्र
शिष्यः किन्तु तेन इत्युक्ते तव शिष्येण रामेण तृतीया विभक्ति तत्र
हा समीचीनं कः अस्ति शिष्यः
शिष्येण धीमता शिष्येण
तर्हि शिष्यः कः
द्रुपदपुत्रेण शिष्येण वा तत्र विशेषणविशेषं वा तत्र न
हा 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 समीचीनं हा द्रुपदपुत्रेण
द्रुपदपुत्र शिष्येण धीमता तव व्यूढामिति वा तत्र क्रियापदं किमस्ति तत्र
तत्र व्यूढाम् एव तत्र
क्रियापदं वा
नाम तत्र चमुं कृतमस्ति व्यूढामिति कृतम् इति चिन्तयतु अथवा तत्र विभजनं कृतमस्ति नाम तत्र एते जनाः तत्र सन्तु तत्र अश्वाः अत्र सन्तु इति सर्वं तत्र विभजनं भवति खलु तादृशं कृतमस्ति केन कृतमस्ति द्रुपदपुत्रेण कृतमस्ति व्यूढाम् इति तत्र साक्षात् विशेषणमस्ति चमूम् इति पदस्य
फार्मेशन् इति वा फार्मेशन्
सत्यं भगिनि तथैव अस्ति
द्रुपदपुत्रेण तव शिष्येण धीमता तव धीमता कस्य विशेषणमस्ति तत्
तव शिष्येण धीमता तर्हि तत्र द्रुपदपुत्रेण अपि तव शिष्येण इति अस्ति तर्हि तत्र शिष्यः कः अस्ति
शिष्येण धीमता
धीमता इति इदानीं मास्तु किन्तु तत्र द्रुपदपुत्रेण इति अस्ति प्रथमविभक्तिरूपं किम् अस्ति
किं महोदय पुनः एकवारं
द्रुपदपुत्रेण इति विभक्ति
तृतीया
हा प्रथमविभक्तिरूपं किम् अस्ति
द्रुपदपुत्रः
द्रुपदपुत्रः द्रुपदपुत्रः एव तत्र द्रुपदपुत्रेण इति अस्ति तव शिष्येण इति अस्ति तर्हि तत्र सम्बन्धः अस्ति वा तयोः मध्ये एकः एव पुरुषः वा तत्र अथवा भिन्नभिन्नपुरुषः तत्र
अहं तत्र
शिष्येण तव शिष्यः अपि द्रुपदपुत्रः समानः वा
तव शिष्येण द्रुपदपुत्रेण धीमता व्यूढां पश्य इति
भगिनि तर्हि तत्र तव शिष्यः नाम तत्र तव इत्युक्ते कः आचार्यः तत्र द्रोणः खलु द्रोणस्य शिष्यः कः अस्ति द्रुपदपुत्रः अस्ति तेन
तव शिष्येन द्रुपदपुत्रेण
कृतमिति अर्थे व्यूढां नाम रचितं रचितमस्ति तत्र वि योगः वः इति धातुः तत्र व्यूढाम् इति भवति किन्तु नाम तत्र रचितम् इति अर्थे चिन्तयितुं शक्नुमः तत्र धीमता इति अस्ति तर्हि तत्र धीमता इत्युक्ते तत्र विभक्तिका इति जानाति वा
धीमता इति तत्र चतुर् तृतीयविभक्ति
तृतीय एव समीचीनं धीमन् धीमन् इति धीमन् धीमता तर्हि धीमान् तत्र
धीमत् इति मन्ये
धीमत् समीचीनं भगिनि
धीमत्
मतुप् मतुप् प्रत्ययः अतः तत्र बुद्धिमान् इति तादृशं धीमान्
वाक्यस्य अर्थः किं महोदय तत्र पाण्डुपुत्र आचार्य पाण्डुपुत्राणां
भगिनी तत्र दुर्योधनः द्रोणम् उद्दिश्य वदति आचार्य भवान् इति स्थाने त्वम् इति यतोहि पश्य इति वदति खलु तत्र मध्यमपुरुषे एकवचनं त्वं पश्य नाम त्वं पश्य किं पश्य चमूं नाम सेनां पश्य कस्य सेनां पश्य
पाण्डुपुत्राणां
पाण्डुपुत्राणां पाण्डवानां सेनां पश्य
कीदृशसेना महती
महती महती महती सेना अस्ति तां पश्य अपि तत्र सेना केवलं तत्र सर्वे जनाः तत्र एकत्र सन्ति इति न खलु तत्र विभजनं कृतं खलु तत्र व्यूहः अस्ति खलु तस्य अतः तत्र चमु व्यूढा अस्ति नाम तत्र अरेञ्ज्मेण्ट् अस्ति अरेञ्ज्ड् आर्मि इति अर्थे
अस्तु
तत्र अरेड् डिवैडेड् आर्मि इति तत्र अरेञ्ज्मेण्ट् अस्ति खलु तत्र अतः व्यूढा चमु इति भवति व्यूढा नाम अरेञ्ज्ड् इति अतः तत्र किन्तु तत्र पश्य इति कृत्वा कर्मपदं भवति व्यूढां चमुं
पश्य
केन कृतमस्ति एषा चमु तत्र द्रुपदपुत्रेण कः अस्ति द्रुपदपुत्रः तव शिष्यः अस्ति अपि कीदृशः अस्ति सः सः धीमान् अस्ति धीमान् अस्ति धीमता नास्ति
धीमान् इत्युक्ते इण्टेलिजेण्ट् ग्रेट्
इति समीचीनम्
अस्तु महोदय
इति भवति
ओ आचार्य पाण्डवपुत्राणां महतीं चमुं व्यूढां द्रुपदपुत्रेण शिष्येन तव शिष्येन द्रुपदपुत्रेण धीमता व्यूढां पश्य इति
धीमता पुत्रे धीमता तव शिष्येण पाण्डुपुत्रेण व्यूढां
शिष्येन इति वक्तुं शक्नुमः महोदय तव धीमता शिष्येन द्रुपदपुत्रेण चमुं व्यूढां पश्य इति
समीचीनम् इति तथैव भवति खलु अस्तु उत्तमम् अस्तु अग्रे सरामः तर्हि अग्रे उमा मीनाक्षी भगिनी अग्रिमं पठति वा
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्रिदमेतेषां बलं भीमाभिरक्षितम्
तर्हि एक प्रथमतया तत्र स्थूलक्षरैः यदस्ति तस्य तत्र विभजनम् अधोभागे कृतं तद् अस्माकम् इत्युक्ते तत्र विभजरूपं किम् अस्ति
किं रूपं
तत्र तदस्माकम् इति समस्तपदमस्ति खलु तर्हि तत्र विभज्य इति वदामः किं भवति
चिन्तयामि तत् अस्माकं भविष्यति
अस्माकं भवति समीचीनम् अपि भीमाभिरक्षितं किं भवति तत्र
भीमा अभिरक्षितं
तथैव भीष्माभिरक्षितं
तत् समानं भीष्मा अभिरक्षितं
अपि द्विद्वे द्विदमेतेषाम्
एतेषां तु तत्र आगच्छति
द्विधम् एषा द्विधम् एतेषां तत्र अधोभागे दत्तमस्ति किमस्ति तु इदम्
ओ न दृश्यते महोदय
इति भवति तत्र श्लोकानाम् अनन्तरं श्लोकानाम् अनन्तरं
श्लोकानाम् अनन्तरम् अग्रिमपुटे अस्ति वा
ओ इति नूतनपुस्तके तादृशमस्ति वा
युक्तपदानि युक्तानि पदानि युक्तानि पदानि
युक्तानि पदानि
एतेषां
तावदेव तावदेव समीचीनं भगिनि हा अस्तु इदानीं तत्र अन्य कोऽपि तत्र हा अस्तु हर्षदा भगिनी किञ्चित् वदति वा तत्र श्लोकस्य विषये प्रथमभागं स्वीकृत्य
आं महोदय प्रयत्नं करोमि दुर्योधन आचार्यम् एव वदति आचार्य पश्य महती चमुम् अस्ति तेषां बलं भीमेण
अस्माकं
अस्माकं बलं भीष्मेण अभिरक्षितमस्ति अपर्याप्तम् अस्ति
तेषां बलम् अपर्याप्तम् इत्युक्ते
बापरे संस्कृतेन किमहं वदामि टु मच् बलम् अस्ति
नाम तत्र तत्र अर्थद्वयं भवितुम् अर्हति तत्र नाम
आम् आम्
अपरिमितम् इति
अपरिमितमिति अथवा भीष्म भीम यथा पाण्डुपुत्राणां सेना रक्षितमस्ति भीमेण तस्य कृते अस्माकं बलं पर्याप्तं नास्ति इति अपि भवितुमर्हति
इति अपि भवितुमर्हति किन्तु तत्र अत्र प्रायशः तत्र अस्माकं तत्र अपरिमितम् अथवा तत्र असमर्थं नाम तत्र अस्माकं बलं न्यूनम् अथवा अस्माकं बलम् अधिकं इति
द्वयमपि भवितुम्
अर्हति
द्वयमपि भवितुम्
तत्र मतभेदः अस्ति इति मन्ये तत्र तर्हि तत्र अपर्याप्तम् इति अपि तत्र अपर्याप्तं किमस्ति विशेषणमस्ति कस्य पदस्य
बलं बलं पदस्य
बलम् अपि भीमापि रक्षितमपि बलम् इति पदस्य विशेषणम् अग्रे तद् तथैव
तथैव तेषां बलं तु भीमाभिरक्षितम् अस्ति तत् पर्याप्तमस्ति
पर्याप्तम् अस्ति पर्याप्तं परिमितम् अथवा
परिमितम्
अपि तु इदं त्विदम् इति भवति भीम अभिरक्षितं नाम तत्र सर्वासु दिशि तत्र भीमः रक्षति सेनां रक्षति बलं रक्षति तत्र सर्वासु दिक्षु सर्वासु दिक्षु भीमः रक्षणं करो भीमः तत्र सेनायाः अथवा बलस्य रक्षणं करोति इति अर्थः अस्तु अभि अभि इत्युक्ते अस्तु समीचीनं भगिनि अस्तु अग्रे तत्र नरेश् महोदय अग्रिमं पठति वा
आं महोदय अयनेषु च सर्वेषु यथा भागम् अवस्थिताः भीष्म एव अभिरक्षन्तु भवन्तः सर्व एव हि अत्र तु स्थूलाक्षरै यथा भागम् अवस्थिताः अपि च भीष्म एव अभिरक्षन्तु
भीष्म एव अभिरक्षन्तु समीचीनं यथा यथा भागम् अवस्थि यथा भागम् अवस्थिताः अस्तु महोदय अस्तु अग्रे तत्र शोभा भगिनी किञ्चित् वदति वा
आम् महोदय अयनेषु च सर्वेषु यथा भागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि इति दुर्योधनः इदानीं वदति तत्र सर्वेषु अयनेषु च यथा भागम् अवस्थिताः. तत्र अयनम् इत्युक्ते मार्गः इति अपि भवति महोदय.
सत्यं भगिनि, अयनः इति अयनम् इत्युक्ते मार्गः. सत्यं भगिनि, तथैव अस्ति.
उत्तरायण दक्षिणायन इति
समीचीनम्.
अयनम् इति अयनम् इति भवति तत्र. आं महोदय, सर्वेषु अयनेषु इत्युक्ते तत्र स्थितानि व्यूहे स्थितानि तेषां व्यूहे स्थितानि सर्वेषु अयनेषु यथा भागं स्थिताः इत्युक्ते तत्र सैनिकाः एव स्थिताः सन्ति यथा भागं तेषु सर्वेषु अयनेषु यथा भागं स्थिताः भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि इति. तत्र भवन्तः इति तत्र प्रथमविभक्तौ भवन्तः सर्वे इति प्रायशः सर्व एव इति अस्ति तत्र.
सर्व इति सर्वे
सर्वे
इति
सर्वे इत्युक्ते तर्हि भवन्तः यथा भागं स्थिताः भवन्तः सर्वे भीष्मम् एव भीष्मम् एव अभिरक्षन्तु इति भवति
सर्वेषु अयनेषु.
सर्वेषु अयनेषु
तत्र सर्वेषु अयनेषु स्थिताः जनाः इति अपि भवितुमर्हति अथवा तस्य रक्षणं सर्वेषु अयनेषु अपि तस्य रक्षणं करोतु इति. किन्तु प्रायः तत्र तत्र नाम सेना अस्ति, सेनस्य सेनायाः तत्र प्रवेशनं कर्तुं प्रवेशं कर्तुं तत्र मार्गाः सन्ति खलु.
तत्र
सर्वेषु मार्गेषु यत्र कुत्रापि तत्र भीष्मः भवेत् किन्तु तस्य रक्षणं भवन्तः सर्वे
तस्य एव रक्षणं कुर्वन्तु इति तत्र इत्युक्ते भवतः लक्ष्यं भीष्मपितामहे एव भवेत् इति इति सूचना ददाति इदानीं दुर्योधनः.
समीचीनं,
सर्वेषां सर्वेभ्यः
समीचीनं भगिनि. नाम तत्र सर्वेषां तत्र मुख्यकार्यमस्ति भीष्मस्य रक्षणं
भीष्मरक्षणम्
इति अस्ति. समीचीनं भगिनि, अस्तु इदानीं तत्र समीचीनं भगिनि, अस्तु इदानीं उषा भगिनी तत्र केलिफोर्निया. उषा भगिनी अग्रिमम्
अग्रिमं महोदय. ततः शङ्काश्च भैर्यश्च प्रणवानकहोमुखाः सहसैवाभिहन्यन्त सशब्दस्तु मुलोऽभवत्. ततः शङ्काः अस्ति, शङ्काः च भैर्याः अथवा भैर्यः
अग्रिमे पुटे दत्तमस्ति, पश्यतु एकवारम्.
शङ्काश्च शङ्कः योगः च शङ्काः योगः च भेद्यश्च भेद्यः योगः च सहसैवाभिहन्यन्त सहसा योगः एव योगः अभियोगः अहन्यन्त अहन्यन्त. शब्दस्तुमुलो भवत् शब्दः योगः तुमुलः योगः अभवत्.
इदानीं तत्र समीचीनं भगिनि, इदानीं तत्र भैर्यश्च इति तत्र विभज्य रूपं किं भवति?
भैर्यः योगः च
तत्र भैर्यः इति पदस्य विभक्ति का?
भैर्यः भेर्या अस्ति वा महोदय?
भवती वदतु तर्हि. शङ्काः च
शङ्काः भेर्या स्त्रीलिङ्गे अस्ति इति मन्ये महोदय. शङ्काः भेर्यः भेर्या भेर्ये भेर्याः भेर्यः भेर्यः भेर्यः
तत्र स्त्रीलिङ्गे समीचीनं तर्हि एकवचनं वा बहुवचनं वा
अत्र तु भेर्यः बहुवचनम् अस्ति महोदय
एकवचने
भेर्यः नदी भेर्य रमा रमे रमाः भेर्यः महोदय
भवती वदतु तत्र अन्य कोऽपि मा वदतु तत्र
भेरी अस्ति वा
भगिनी श्रेष्ठ भगिनी मास्तु मास्तु
नदी नद्यौ नद्यः
नदी नद्यौ नद्यौ
नद्यः
भेर्यः
भेर्यः प्रथमबहुवचने अस्ति
समीचीनं
शङ्काः पुंलिङ्ग अस्ति तत्र बहुवचने
समीचीनं भगिनि शङ्कः शङ्काः
शङ्काः
भेरी भेर्यः
भेर्यः
पणवानकगोमुखाः
तत्रापि बहुवचने अस्ति
गोमुखाः
पणवानकगोमुखाः
पणव आनकगोमुख बहुवचने गोमुखाः इति अस्ति अस्तु
सहसा तु अव्ययमस्ति तत्र सहसा
सहसा
वाभ्य
अभि अभिहन्यन्त अहन्यन्त
अन्यन्त इत्युक्ते किम्
न अहन्यन्त
अभि
अभि सत्यं सत्यं अहन्यन्त इति रूपं जानाति वा
अन्यन्त
किन्तु तत्र
किमस्ति
क्रियापदं किमस्ति अहन्यन्त इति लट्लकारे रूपं किम् अस्ति
अन्यन्त अन्यन्त अत्र तु मध्यमपुरुषस्य
अहन्यन्त इति नास्ति अहन्यन्त इति अस्ति
ओ अह अन्यन्त
अहन्यन्त
लङ्
उत्तमं किन्तु लट्लकारं समीचीनं भगिनि लट्लकारे किमस्ति अस्तु इदानीम् अन्य कोऽपि वदतु
अहन्यन्त अन्यत्
किन्तु अहन्यन्त इति अस्ति चेत् किं भवति
चकार
इति
हन्यते महोदय
कर्मणि तत्र आत्मनेपदी धातु भवेत् खलु
आत्मनेपदी भवेत् अत्र कर्मणि प्रयोगे यकारः श्रूयते अहन्यन्त इति
समीचीनम् अतः तत्र हन्यते इति हन्यते हन्येते हन्यन्ते अहन्यते अहन्यत अहन्येताम् अहन्यन्त इति तत्र अभियुक्त इति उपसर्गः समीचीनं भगिनि शुभवर्णि तत्र यदा तत्र एतत् सर्वं तत्र गोमुखाः शङ्काः भेर्यः पणवानकगोमुखाः सहसा अभि अहन्यन्त नाम ते तेषां तत्र
हननं
कृतम् इत्युक्ते तत् नाम देवर् स्ट्रिक् स्ट्रक् नाम देवर् सौण्डेड् शब्दः तेषां शब्दः उत्पन्नः अभवत् शब्दः तुमुलः अभवत्
तुमुलः इत्युक्ते किं महोदय
तुमुलः तत्र वयं श्रोतुमेव न शक्नुमः तादृशमस्ति
भयङ्करं
तत्र आङ्ग्लभाषे सदृशं पदमस्ति तुमुलः नाम टुमुल्टस् इति अतः तत्र सम्यक् रीत्या मनसि स्थापितुं शक्नुमः तुमुलः टुमुल्टस् इति अतः तत्र भयङ्करम् अभवत् तादृशशब्दः अभवत् इति अस्ति समीचीनं अस्तु सर्वं तत्र प्रथमाध्याये एतत् सर्वम् अस्ति अतः इदानीम् अग्रे सरामः समीचीनं भगिनी धन्यवादः अस्तु अग्रे तत्र पदवी भगिनी अग्रे
अधुना वयं सन्धीनां विषये किञ्चित् ज्ञानं प्राप्नुवाम
सन्धि यत्र आदेशादिकं सम्भवति तादृशः वर्णयोः अतिशयितः सन्निधिः सन्धि इति उच्यते सन्धिविषये अधिकं ज्ञातुम् आदौ एते विषयाः अस्माभिः ज्ञातव्याः सन्ति
किञ्चित् वदतु तदनन्तरम् अग्रे पठतु
यत्र आदेशादिकम् आदेश आदि सम्भवति आदेश
आदिकम् नाम तत्र इत्यादिकम्
इत्यादिकम् सम्भवति तादृशः वर्णयोः द्वे वर्णे
अतिशयितः
अतिशयितः सन्निधिः अतिशय सान्निध्यमस्ति यत्र तत्र सन्धि इति उच्यते वर्णान्
सन्निधिः नाम सामीप्यं यत्र सामीप्यं
तत्र
अस्ति वर्णयोः सामीप्यम् अतिशय अतिशयं सामीप्यम् सामीप्यम् अतिशयं सामीप्यं यत्र अस्ति तत्र सन्धि इति
उच्यते
इति वदामः सन्धिः इति वदामः सन्धिविषये
अधिकं ज्ञातुम् आदौ एते विषयाः अस्माभिः ज्ञातव्याः सन्ति
इत्युक्ते किम्
अधिकं यदि वयम् अधिकं ज्ञातुम् इच्छामः सन्धिविषये तर्हि अधोदत्तानां विषयाः ज्ञातव्याः भवति
समीचीनम् अधो दत्ताः विषयाः अस्माभिः ज्ञातव्याः भवन्ति समीचीनं भगिनि अस्तु इदानीं तत्र प्रथमं पठतु
अक्षरं श्रवणेन्द्रियग्राह्यम् अक्षरं तस्य एव वर्णः इत्यपि नाम अक्षरं त्रिविधं स्वरः अयोगवाहः व्यञ्जनं च इति तर्हि श्रवणेन्द्रियग्राह्यम् इत्युक्ते यत् वयं श्रोतुं शक्नुमः
श्रवणेन्द्रियग्राह्यं श्रवणेन्द्रियेण
श्रवणेन्द्रिय इत्युक्ते कर्णं कर्णे
तत्र कर्णेन ग्रहीतुं यस्य ग्रहणं भवति तदस्ति
अक्षरम्
तस्य एव
वर्णाः इति नाम
वर्णः इति अपि नाम अस्ति तत्र पुल्लिङ्गे वर्णः नपुंसकलिङ्गे अक्षरम् इति भवति वर्णः इत्युक्ते अक्षरम् एव अग्रे
अक्षरं त्रिविधं त्रयः स्वरः अयोगवाहः व्यञ्जनं च
तत्र तस्य त्रैविध्यं
कानिचन अक्षरः स्वरः सन्ति कानिचन अयोगवाहः अस्ति अयोगवाहः क्षम्यतां केचन व्यञ्जनानि सन्ति
व्यञ्जनानि अपि सन्ति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे तत्र पेन्सिल् वेन् उषा भगिनि अग्रे पठति वा
आं महोदय स्वरः स्वतन्त्रतया उच्चार्यमाणः वर्णः स्वरः अ इ उ ऋ लृ ए ओ ऐ औ इत्येते स्वराः स्वरः त्रिविधः ह्रस्वः दीर्घः प्लुतः च इति वर्ण उच्चारणकालः मात्रा इति उच्यते एकमात्राकालेन उच्चारयितुं योग्यः स्वरः ह्रस्वः अ इ उ ऋ लृ एते ह्रस्वाः द्विमात्राकालेन उच्चारयितुं योग्यः स्वरः दीर्घः आ इ उ ऋ ए ऐ ओ औ एते दीर्घाः त्रिमात्राकालेन उच्चारयितुं योग्यः स्वरः प्लुतः अ इ उ ऋ लृ ए ऐ ओ औ एते प्लुताः त्रिमात्राकालेन उच्चार्यन्ते उच्चार्यन्ते इति बोधयितुं वर्णस्य पुरतः त्रि संख्या लिख्यते.
समीचीनं भगिनि. उत्तमं. तर्हि तत्र स्वरः कीदृशः वर्णः?
स्वतन्त्रतया उच्चार्यमाणः, उच्चार्यमाणः स्वरः
यस्य वर्णस्य उच्चारणे उच्चारणस्य तत्र अन्यस्य आवश्यकता नास्ति, स्वतन्त्रतया उच्चार तस्य उच्चारणं कर्तुं शक्नुमः इत्युक्ते तत्र स्वरः. तत्र व्यञ्जनानां तत्र उच्चारणं तत्र स्वतन्त्रतया न कर्तुं शक्नुमः,
कर्तुं शक्यते. आम्.
अतः अत्र उच्चारणं स्वतन्त्रतया कर्तुं शक्नुमः. अतः स्वरः स्वतन्त्रतया इति स्व इत्युक्ते स्वतन्त्रता इति. समीचीनं भगिनि. अपि तस्य त्रिविधः अस्ति. किमस्ति?
ह्रस्वः, दीर्घः, प्लुतः.
प्लुतः इति. समीचीनम्. अपि
तत्र मात्रा अपि
उच्चारणकालं अनुसृत्य विभागः क्रियते, खलु?
क्रियते. आं महोदय.
तत्र उच्चारणं तत् कालं लघुकालम् अस्ति चेत् ह्रस्वः,
ह्रस्वः
मध्यम इत्युक्ते तत्र दीर्घः इति.
दीर्घः.
बहुकालं तत्र प्लुतः इत्युक्ते त्रि अपि चत्वारि अपि भवितुमर्हति. अतः तत्र बहुकालं
प्लुतः
प्लुतः इति भवति. समीचीनं भगिनि. उत्तमम्. अस्तु, धन्यवादः. अस्तु, अग्रे तत्र उमा मीनाक्षी भगिनी अग्रे पठति वा?
ओके, अग्रे कुत्र पठनीयम्?
अयोगवाहः.
अयोगवाहः तत्र तु अनुस्वारः, विसर्गः, अनन्तरं क ख जीवामूलीय कथाभ्यां पूर्वम् अर्धविसर्गसदृशो वर्णः जिह्वामूलीयः. क ख उपद्मानीयः. कथाभ्यां पूर्वः अर्धविसर्गसदृशो वर्णः उपद्मानीयः. ख ख ख एते चत्वारः अयोगवाहाः. अत्र अनुस्वार यद् वयं लिखामः अम् इति, तदस्ति अनुस्वारः. अनन्तरम् अभ इति यद् लिखामः तत्र विसर्गस्य उपयोगं कुर्मः. द्वयोः नाम अयोगवाहः इति. तदनन्तरं क ख विषये किमस्ति, पूर्वं विसर्गः आगच्छति चेत् तस्य उच्चारणम् अर्धविसर्गसदृशः भवति.
तस्य नाम अस्ति तत्र जिह्वामूलीयः.
अनन्तरं प ख विषये तदेव, यदा प अथवा ख पूर्वं विसर्गः आगच्छति चेत् तस्य उच्चारणम् अर्धविसर्ग इव भवति. तस्य नाम अस्ति उपद्मानीयः.
नाम तत्र अन्तःपुरम् इति भवति खलु. तत्र अन्तः योगः पुरं खलु. तत्र अन्तःपुरम् इति वदामः, तत्र अर्धविसर्गः भवति खलु, अतः उपद्मानीयः तत्र भवति. विसर्गस्य अनन्तरं फ इति अस्ति, अतः अन्तःपुरम्
खादति. यदा एवं वदामि चेत् रामः खादति, भिन्नं भिन्नं. जिह्वामूलीय यस्य उपयोगं कृत्वा वदामि चेत् रामः खादति इति आगच्छति.
समीचीनं भगिनि, तथैव अस्ति. अतः तत्र एते चत्वारः अयोगवाहाः नाम तत्र अनुस्वारः, विसर्गः, जिह्वामूलीयः, अपि उपद्मानीयः इति तत्र अयोगवाहाः, चत्वारः अयोगवाहाः इति. तर्हि अयोगवाहानां तत्र चतुर्विधः अस्ति. प्रथमः अस्ति अनुस्वरः, द्वितीयः अस्ति विसर्गः, तृतीयः अस्ति तत्र जिह्वामूलीयः, चतुर्थः अस्ति उपद्मानीयः. इति समीचीनं भगिनि. हा धन्यवादः.
अस्तु अग्रे तत् नास्ति वक्तुं शक्नुमः वा?
किं भगिनि?
अयोगवाहः इति उक्तमस्ति, अतः एतेषां योगः नास्ति.
हा इति अस्ति सत्यं भगिनि. हा अपि तत्र अन्यदपि किमपि कारणमस्ति भगिनि, नाम योगः इति तत्र अन्यदपि किमपि वर्णनमस्ति भगिनि, अहं न इदानीं स्मरामि. किन्तु यदि
महोदय तत्र माहेश्वरसूत्रेषु एते स्वराः न योजिताः इति पठितवती महोदय.
हा सत्यं सत्यम्.
अतः अयोगवाहः
अयोग नाम तत्र योग तत्र तेषां योजनं तत्र नास्ति इति. हा समीचीनं भगिनि. हा एतादृशमेव मयापि श्रुतमस्ति. हा धन्यवादः भगिनि. हा
धन्यवादः.
हा उमा मीनाक्षी भगिनि इदानीं
किं महोदय
समीचीनं वा?
समीचीनम्. अहम् एवमेव प्रश्नं पृष्टवती.
हा किन्तु उत्तमं. हा तथैव भवेत् तत्र. हा अतः प्रश्नाः भवेयुः. हा समीचीनम्. अस्तु अग्रे सरामः तर्हि तत्र अग्रे तत्र. हा सुजाता भगिनी अग्रे पठति वा?
महोदय पठामि. व्यञ्जनम् अर्धमात्रकालेन उच्चारयितुं योग्यः वर्णः व्यञ्जनं, तच्च वर्गीयव्यञ्जनम् अवर्गीयव्यञ्जनं च इति द्विविधं भवति. व्यञ्जनम् इत्युक्ते खाक गघ ञ कवर्गः, च छ झ झ ञ चवर्गः, ठ ट ड ढ ण तवर्गः, थ थ द ध तवर्गः, प फ भ भ म पवर्गः. एतानि पञ्चविंशतिः वर्गीयव्यञ्जनानि य र ल व स श सा ह. एतानि अष्ट अवर्गीयव्यञ्जनानि.
अवर्गीयव्यञ्जनानि
व्यञ्जनानि द्विविधा भवति.
कति वर्गीयव्यञ्जनानि सन्ति?
पञ्चविंशति
वर्गीयव्यञ्जनानि सन्ति. अवर्गीयव्यञ्जनानि कति सन्ति?
अष्ट व्यञ्जनानि सन्ति अवर्गीय
अवर्गीयव्यञ्जनानि. समीचीनम्. हा अपि तत्र कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः. अतः तत्र कति वर्गाः सन्ति?
पञ्चवर्गाः सन्ति वर्गीय
पञ्चवर्गाः सन्ति. हा अपि तत्र अग्रे गत्वा तत्र प्रथमस्तम्भे तत्र ख च ट त प, द्वितीयस्तम्भे तत्र अल्पप्राणः, महाप्राणः, कर्कषः व्यञ्जनानि, एतत् सर्वम् अग्रे पश्यामः. हा समीचीनं भगिनि. अस्तु अग्रे तत्र
धन्यवादः.
हा समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे नरेश महोदय अग्रे पठति वा?
महोदय सन्धिकार्यादौ सौ सौकार्यार्थं व्यञ्जनानां विभागः कार्येण अपि कृतः अस्ति. ग घ ङ झ झ ण एतानि मृदुव्यञ्जनानि. मृदुव्यञ्जनानि तृतीय चतुर्थ अपि च पञ्चमस्तम्भ मृदुव्यञ्जनानि सन्ति. क ख ग क ख
महोदय केवलं तृतीय चतुर्थ पञ्चस्तम्भे इति एव न खलु?
अपि च य र ल व ह अपि
इति. समीचीनम्.
मृदुव्यञ्जनानि सन्ति. कर्कशव्यञ्जनानि प्रथमस्तम्भ, द्वितीयस्तम्भ अपि च श श स तत् कर्कशव्यञ्जनानि सन्ति.
समीचीनं. हा अस्तु तर्हि तत्र कति मृदुव्यञ्जनानि कति कर्कषव्यञ्जनानि
व्यञ्जनानि विंशति सन्ति अपि च कर्कषव्यञ्जनानि त्रयोदशः सन्ति
हा त्रयोदश कर्कषव्यञ्जनानि अपि तत्र विंशतिः
मृदुव्यञ्जनानि
मृदुव्यञ्जनानि समीचीनं महोदय तर्हि तत्र आहत्य कति व्यञ्जनानि सन्ति
त्रयोत्रिंशत्
त्रयस्त्रिंशत् त्रिंशत् व्यञ्जनानि सन्ति अपि स्वराः तत्र प्रायशः अत्र न दत्तम् अतः त्यजामः यद् दत्तमस्ति तत् पश्यामः समीचीनं महोदय अस्तु अग्रे तत्र समीचीनं महोदय अग्रे जाता भगिनी पठितवती अस्तु तर्हि तत्र हा वेदा भगिनी अग्रे पठति वा
महोदय कवर्गः च वर्गः टवर्गः टवर्गः पवर्गः च क्रमेण कु चु टु तु पु इति शब्दैः व्याकरणे व्यवहृताः भवन्ति अतः कु कवर्गः चु च वर्गः टु
कु इत्युक्ते कवर्गः
कु इत्युक्ते कवर्गः चु इत्युक्ते च वर्गः टु इत्युक्ते टवर्गः तु इत्युक्ते तवर्गः पु इत्युक्ते पवर्गः इति ज्ञातव्यम्
तर्हि वदतु किमस्ति
संज्ञा इति वदामि तत्र कवर्ग इति स्थाने कु इति वदेम चवर्गस्थाने चु टवर्गस्थाने टु टवर्गस्थाने टु पवर्गस्थाने पु पु इति शब्दैः व्याकरणे व्यवहारे अस्ति
व्यवहारे व्याकरणे एतादृशव्यवहारः भवति अथवा व्याकरणे व्यवहृताः
व्यवहृताः
नाम वर्गाः व्यवहृताः भवन्ति अस्तु समीचीनं तर्हि एतत् सर्वम् अस्माभिः ज्ञातव्यम् अस्ति नाम यत्र कुत्रापि वयं कु इति पश्यामः तत् कु इति
नास्ति कवर्ग इति
कवर्गः कवर्गे किमपि भवति चेत् कु इति संज्ञा दत्तं भवति दत्ता भवति समीचीनं भगिनि अस्तु धन्यवादः
अग्रे पठामि वा न
तावत्पर्यन्तं समीचीनं भगिनि अग्रे तत्र शोभा भगिनी अग्रे पठतु
आं महोदय माहेश्वरसूत्राणि पाणिनिः भगवतः ईश्वरस्य अनुग्रहात् इमानि सूत्राणि प्राप्य व्याकरणम् अरचयत् तत्र आ इ उण् ऋक् ए ओङ् ऐ औच् हयवरट् लण् नमङ्गणनं जभै घडधश् जबगडधश् कफचठथच ततौ कपै शशसर् हल् इति एतानि माहेश्वराणि इति प्रसिद्धानि एतानि चतुर्दशसूत्राणि महेश्वरात् आगतानि इति वैयाकरणानां मतम् एतेषु सूत्रेषु हयवरप्रभृतयः वर्णाः सन्ति हकारादिषु अकारः उच्चारणार्थं तेन हयवर इत्यनेन ह य व र इत्येतेषां वर्णानां ग्रहणं भवति अयोगवाहाः तु माहेश्वरसूत्रेषु न अन्तर्भूताः
अत्रापि समाधानं
अत्रापि अस्ति आम् तत्र फुट् नोट् अपि पठामि वा महोदय न विद्यते योगः माहेश्वरसूत्रेषु येषां ते अयोगाः योगः सम्बन्धः वहन्ति इति वाहाः प्रयोगं निर्वहन्ति इति अर्थः अयोगाः च ते वाहाः च अयोगवाहाः इति भवति अस्तु तर्हि तत्र पाणिनिमहर्षिणा ईश्वरस्य अनुग्रहात् इमानि सूत्राणि आगतानि इति वैयाकरणानां मतम् अस्ति तत्र चतुर्दश
सूत्राणि दत्तानि महेश्वरात् पाणिनिमहर्षिं तानि इदानीं पठितं तानि सूत्राणि पाणिनिमहर्षिणा प्राप्तानि महेश्वरात् इति अपि च अतः तत्र माहेश्वरसूत्राणि इति नाम्ना प्रसिद्धाः प्रसिद्धानि भवन्ति एतानि सूत्राणि अपि च एतेषु हयवरप्रभृतयः वर्णाः सन्ति इति हकारादिषु अकारः उच्चारणार्थः इति इत्युक्ते तत्र हकारादिषु अकारः उच्चारणार्थः इत्युक्ते तत्र वस्तुतः व्यञ्जनानि स्वररहित वर्णाः सन्ति तत्र यथा तत्र ह य व र इति तर्हि तत्र उच्चारणे क्लेशः भवति अपि च अर्थस्य यदि तादृशं पठामः अर्थे अपि अर्थग्रहणे अपि क्लेशः भवति अतः तत्र उच्चारणसौकर्याय प्रत्येकस्य व्यञ्जनस्य पुरतः अकारः स्थापितः तेन उच्चारणं सम्यक् भवति इति कृत्वा अतः तत्र सर्वत्र तथा एव भवति व्यञ्जनानां विषये तदेव तत्र उक्तम् अपि च
तेन इति यदि पठामः तत्र ह योग अकारः इति नास्ति किन्तु केवलं तत्र ह इति
एव उच्चारणमात्रमेव तत्र यदा सन्धिविषये भवति तदा तु तत्र अकारः योजितमस्ति सन्धिविषयेषु तत्र स्वीकृतं भवति किन्तु केवलं यदा पठामः व्यञ्जनानि उच्चारणार्थमेव तत्र आ इति वस्तुतः नास्ति इति
नाम माहेश्वरसूत्राणि यानि सन्ति तेषु ह य व र इति वदामः किन्तु तत्र ह इति एव तत्र अरहितव्यञ्जनमेव सूचितमस्ति
सूचितमस्ति
किन्तु तत्र उच्चारणसौकर्याय अकारः योजितः अस्ति समीचीनं भगिनि
किन्तु तत्र एव इति उक्तं वा तत्र महोदय न तु अन्यानां व्यञ्जनानां कृते न इति वा तत्र
सर्वत्र सर्वत्र
सर्वत्र भवति
यतोहि तत्र प्रभृतयः इति अस्ति खलु
सत्यं सत्यं
हयवरप्रभृतयः
प्रभृतयः सन्ति हयवरादिः
इति सर्वत्र यत्र यत्र तत्र सर्वत्र तत्र झब
तदेव
अपि तत्र अयोगावाहः इत्युक्ते तत्र माहेश्वरसूत्रेषु न अन्तर्भूताः इति इति अस्ति समीचीनं भगिनि अस्तु अग्रे तत्र इदानीं तत्र उषा भगिनी तत्र पेन्सिल्वेनिया उषा भगिनी पठति वा अग्रे
अहं पठामि वा
तत्र केलिफोर्निया उषा भगिनी भवती अस्ति तत्र पेन्सिल्वेनिया उषा भगिनी
ऐ एम आल्सो अस्ति ऐ आल्सो इट्स ओके महोदय लेटर रीड्या
केलिफोर्निया उषा भगिनी भवती तत्र
एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वररहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते इत्युक्ते तत्र आ इ उण् तत्र आ इ उ स्वर अस्ति नकार तत्र व्यञ्जनम् अस्ति तेन सह उच्चार्यमाणः आदिमः वर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति यथा आ इ उण् इति सूत्रस्य ईकारस्य रूल् ऋक् इति सूत्रस्थेन अन्तिमव्यञ्जनेन कारणे सह उच्चारणे इक् इति शब्दः निष्पद्यते
इदानीं तत्र किञ्चित् वदतु भगिनि तत्र प्रथमवाक्यं पुनः पठित्वा किञ्चित् वदतु यत् अवगच्छति
एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वररहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते. इत्युक्ते तत्र माहेश्वरसूत्राणि चतुर्दश सन्ति. आ इ उण् तत्र नकार दृश्यते व्यञ्जनम् अन्ते, नृ नृक् ककारव्यञ्जनं दृश्यते अन्ते, ए ओं ङकार दृश्यते.
तत्र किम्
अन्ते व्यञ्जनं दृश्यते.
व्यञ्जनं कीदृशम् अस्ति? स्वरसहितं, स्वररहितम् एकमेव व्यञ्जनं, एकमेकं व्यञ्जनं अन्ते अस्ति. तर्हि तत्र माहेश्वरसूत्रेषु अन्तिमवर्णः व्यञ्जनमेव अस्ति, स्वररहितव्यञ्जनम् अस्ति, कुत्रापि स्वरः नास्ति अन्ते, खलु?
आम्
महोदय, इति अस्ति, समीचीनम्.
परन्तु लण् अपि ऐ वुण् लण् तत्र द्विवारं दृश्यते न महोदय, णकार.
किन्तु एतावत् किम् उक्तम्? अन्ते एकम् एव व्यञ्जनं,
व्यञ्जनम् अन्ते श्रूयते,
तावदेव. तत्र कतिवारम् इति विषयः नास्ति, अन्तिमवर्णः व्यञ्जनं स्वररहितं व्यञ्जनम् इति एव अस्ति. अस्तु, समीचीनं भगिनि. अस्तु, इदानीं तत्र अग्रे तत्र हर्षदा भगिनि, इदानीं द्वितीयवाक्यं तस्य अर्थः कः इति वदति वा?
तेन सह उच्चार्यमाणः आदिमवर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति. उदाहरणार्थं महोदय, आम् आम्, यदि वयं अ इ उण् इति प्रथमं सूत्रं पश्यामः, तत्र अण् इति प्रत्याहारः भवति, प्रथमं स्वरः, अनन्तरं णकारः, मध्ये इ इ उ स्वराः, इ उ अस्ति, तत्र अण् इति वदामः चेत् अ इ उ इत्येषां बोधनं भवति.
नाम तत्र तेन सह इति अस्ति खलु, तेन सह इत्युक्ते केन सह?
प्रथम यत् किमपि वर्णः अस्ति तेन सह अन्तिम हलन्त
भगिनि भगिनि हर्षदा भगिनि एकनिमिषः, तत्र एकवारं तत्र वाक्यं पठतु.
अन्तिम अन्तिम यत् हलन्तवर्ण अस्ति तेन सह आदिम
व्यञ्जनं यदस्ति व्यञ्जनेन सह
आदिम यः वर्णः अस्ति तस्य
तत्र उच्चार्यमाणः
वर्तमानानां तस्य मध्ये वर्तमानानां वर्णानां मिलित्वा बोधक स्वस्य बोधकः भवति. इत्युक्ते महोदय एक्स्प्लेन् कर्तुं बहु काठिन्यं वर्तते.
तत्र अस्तु अस्तु, इदानीं तत्र उषा भगिनी, केलिफोर्निया उषा भगिनी, भवती पठितवती खलु तत्र प्रथमवाक्यम् अपि किञ्चित् विवृणोति. इदानीं द्वितीयवाक्यं भवती एव तत्र.
तेन सह उच्चार्यमाणः आदिमवर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति, यथा अ इ उण् इति सूत्रस्थ
इति एव स्वीकरोतु, उण् इति स्वीकरोतु. तर्हि किम् अस्य वाक्यस्य अर्थः कः इति वदतु तर्हि. तत्र भागं भागं स्वीकृत्य पश्यतु, तत्र आदिमवर्णः अ इ उन् मध्ये आदिमवर्णः कः?
अवर्णः.
समीचीनम्, अस्तु. तेन सह इति अस्ति, तेन सह इति इत्युक्ते केन सह?
अकारसह.
न न तेन सह इति वाक्यस्य आदौ एव अस्ति तेन सह इति.
व्यञ्जनम् अन्ते तेन सह, केन सह? चतुर्दश
तत्र रामः वनं गच्छति, तेन सह लक्ष्मणः अपि गतवान्, तत्र
रामेण सह,
तथैव तत्र पूर्वस्मिन् वाक्यं द्रष्टव्यमस्ति खलु, तेन सह इति अस्ति चेत् तत्र तत्र व्यञ्जनम्
व्यञ्जनेन व्यञ्जनेन सह
अन्तिम अन्तिम व्यञ्जनं व्यञ्जनेन सह उच्चार्यमाणः आदिमवर्णः तर्हि व्यञ्जनम् अन्तिमव्यञ्जनं तस्य उच्चारणं भवति तदनन्तरम् आदिमवर्णस्य अपि उच्चारणं यदा भवति अत्र अ इ उण् इति अस्ति अन्तिमवर्णः कः व्यञ्जनं किमस्ति
न नकार न
हा अपि आदिमवर्णः किमस्ति कः अस्ति अ इदानीं तत्र अ इति आदिमवर्णः इण् इति अन्तिमव्यञ्जनम् इति यदि अण् इति वदा इति तस्य उच्चारणं भवति तदा
मध्ये
बोधकः बोधकः भवति तदा
इ उ इत्यस्य बोधकः भवति अण् इति वदनेन आयु उ इति ज्ञातुं शक्नुमः
अस्तु तर्हि एकनिमिषः तत्र तेन सह उच्चार्यमाणः आदिमवर्णः मध्ये वर्तमानानां वर्णानां
स्वस्य च बोधकः
बोधकः भवति तर्हि इति पठनेन इति उच्चारणेन मध्ये वर्तमानानां मध्ये के के वर्णाः सन्ति
इ उ इति तस्य बोधकः
बोधकः भवति अपि केवलं मध्ये वर्तमानानां वर्णानां बोधकः भवति इति उक्तं वा अथवा च इति अपि अस्ति खलु तत्र मध्ये बोधकः प्राक् च इति अस्ति खलु
स्वस्य च बोधकः स्वस्य च अपि भवति
स्वस्य इत्युक्ते कस्य
नकारस्य
अपि बोधकः भवति
भवति
तर्हि आ इ अण् इत्युक्ते कस्य बोधः भवति
इ उ इत्यस्य
अकारस्य अण् इत्युक्तं अण् इत्युक्ते कस्य बोधः भवति अकारस्य
इकारस्य उकारस्य
उकारस्य बोधः भवति न तु णकारस्य अन्तिमवर्णस्य बोधः न भवति किन्तु आदिमवर्णस्य बोधः मध्ये वर्तमानानां वर्णानामपि बोधकः भवति बोधः भवति तर्हि अण् इत्युक्ते अकारः इकारः उकारः तावत् अस्ति अस्तु समीचीनं हा अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र के मध्ये तत्र मध्ये कः अथवा का नटि पठितवती इदानीं तत्र किञ्चित् भ्रमः अस्ति तत्र अग्रे का पठितुम् इच्छति तत्र पल्लवी भगिनी पठितुम् इच्छति वा पल्लवी भगिनी अस्तु तर्हि तत्र
भवान् माम् उक्तवती महोदय
अस्तु
पूर्वम्
उषा भगिनी भवती पठतु वदतु तर्हि अग्रिम वाक्यं पठित्वा किञ्चित् वदतु हा पल्लवी भगिनी श्रूयते अस्तु 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 तर्हि अस्तु तत्र उषा भगिनी भवती अनन्तरं वदतु
अस्तु महोदय
तर्हि वदतु तत्र यथा इति
यथा अ इ उण् इति सूत्रस्थस्य ईकारस्य रुलुप् इति सूत्रस्थेन अन्तिमव्यञ्जनेन ककारेण सह उच्चारणे इक् इति शब्दः निष्पद्यते अत्र तेन अ इ रुल् इति वर्णाः उपस्थिताः भवन्ति
इदानीं तत्र किञ्चित् वदतु तत्र
यथा अ इ उण् इति सूत्रे अ इ उ इति वर्णाः स्थिताः सन्ति तर्हि इकारस्य रुलुक इति सूत्रस्थेन अन्तिमव्यञ्जनेन ककारेण सह उच्यते उच्चारणे इक् इति शब्दः निष्पन् यदि वयम् इकारतः प्रारम्भं कुर्मः आदिमवर्ण आदिमवर्ण
इक् इति शब्दः इक् इति शब्दः
आम् इक् इति शब्दः निष्पद्यते
इक् इति शब्दः स्वीकुर्मः इक् इति शब्दः तत्र इ इति आदिमवर्ण
आदिमवर्ण आम् ककार इति अन्तिमव्यञ्जनम्
अन्तिमव्यञ्जनम् अस्ति
तर्हि मध्ये वर्तमानः अस्ति उरुलु तर्हि इकारसहित उकार ऋकार लुकारस्य गणनं
भवति समीचीनं भगिनि तर्हि तत्र यदि माहेश्वरसूत्राणि पश्यामः तत्र अ इ उण् इति अस्ति किन्तु अपि ऋ लृ इक् इति अस्ति किन्तु इक् इति यदि वदामः तत्र कस्य बोधः भवति इकारस्य
ऋकार लुकार तर्हि अन्तिमस्थिते मध्ये अन्तिमस्थिते यदि व्यञ्जनानि सन्ति तत् न स्वीकरोति
तस्य बोधः तेषां बोधः न भवति नाम ककारस्य बोधः न भवति नकारस्य अपि बोधः
नकारस्य न
बोधः न भवति अतः तत्र इक् इत्युक्ते केवलम् इ उ ऋ लृ तेन इकारः उकारः ऋकारः लृकारः इति वर्णाः उपस्थिताः भवन्ति इक् इति शब्दस्य उच्चारणेन समीचीनं वा अग्रे
एवम् उपसंहृत्य व्यवहृतः शब्दः प्रत्याहारः इति व्याकरणे प्रथितः
एतादृशशब्दः प्रत्याहारः इति
प्रसिद्धः
व्याकरणे प्रथिताः प्रसिद्धः अस्तु
स्पष्टप्रतिपत्तये केचन प्रत्याहाराः अत्र स्वविवरणं दर्शिताः सन्ति अत्र
किमुक्तमस्ति वाक्यस्य अर्थः कः
स्पष्टतायाः कृते
प्रतिपत्तये इत्युक्ते
न जानामि
स्पष्टप्रतिपत्ते तत्र स्पष्टता
स्पष्टीकरणं
स्पष्टीकरणार्थं तत्र
चतुर्थी
प्रतिपत्तये इति चतुर्थी प्रतिपत्तिः तत्र प्रसिद्धश्लोकः अस्ति खलु तत्र वागर्ताविव सम्पृक्तो वागर्तप्रतिपत्तये
प्रतिपत्तये जगत्पितरौ भवन्ते पार्वती
परमेश्वरौ प्रतिपत्तये जगत्पितरौ अत एव तत्र तस्य स्पष्टीकरणार्थं केचन प्रत्याहाराः अत्र दर्शिताः सन्ति तर्हि अण् इत्युक्ते किमर्थं
अ इति आदिमवर्णः अस्ति णकारः न ग्रहणीयं स्वररहितं व्यञ्जनं न ग्रहणीयम्
अस्तु समीचीनं तर्हि तत्र इदानीं तत्र समीचीनं भगिनि धन्यवादः इदानीं तत्र उषा भगिनि इदानीं भवती अग्रिमम् एकवारं पठित्वा किञ्चित् विवृणोतु भगिनि
अस्तु महोदय अक् इति अ इ उ ऋ लृ अक् इति अक् इति प्रत्याहारस्य कृते अ इति आरम्भवर्णः इति गृहीतं ककारः अण्टिल् ककारः दृश्यते पर्यन्तं ककारः दृश्यते सर्वे वर्णाः अक् प्रत्याहारेण गृहीतं भवति अ आदिमवर्णः अस्ति चेत् माहेश्वरसूत्राणि अ इ उण् ऋ लृक् इति द्वितीयसूत्रस्य अन्तिम व्यञ्जनवर्णः अस्ति ककारः अकार आरम्भतः ककारपर्यन्तं या सर्वे वर्णाः मध्ये अस्ति तत् वर्णानां ग्रहणं भवति अक् इति प्रत्याहारेण अ इ उ ऋ लृ इति वर्णाः गृहीतं भवति
किन्तु अन्तिमवर्णस्य ग्रहणं न
ग्रहणं न भवति
नाम अ इ उण् मध्ये उण् इति यदस्ति तस्य ग्रहणं
नकारः न गृहीतं भवति
तथैव ककारः अपि
न ग्रहणं भवति
इति समीचीनं भगिनि अस्तु अग्रिमं
यण् यकारः आरम्भवर्णः यकारः आरम्भवर्णः यकारः इति पञ्चमसूत्रे ह य यकारः आरम्भवर्णः यण् यवरट् लण् षष्ठसूत्रे सूत्रस्य कृते लण् इति अयवर यवर टकारः न गृहीतं भवति ल गृहीतं भवति षष्ठसूत्रे अण्ड् अन्तिमणकारः अपि न गृहीतं भवति यवर ल इति ग्रहणं भवति
इदानीं तत्र एकं वक्तव्यम् अस्ति नाम तत्र पूर्वं वयं पठितवन्तः तत्र आदिमवर्णः इति आदिमवर्णः इत्युक्ते तत्र सूत्रे आदिमवर्णः इति न यत्किमपि प्रत्याहारे आदिमवर्णः तद् सूत्रे प्रथमवर्णः इति नास्ति तत्र यण् इति अस्ति यकारः आदिमवर्णः अस्ति किन्तु यकारः सूत्रे पञ्चमे सूत्रे अस्ति किन्तु पञ्चमे सूत्रे प्रथमवर्णः
नास्ति
अतः तत्र आदिमवर्णः अपि प्रथमवर्णः भेदः अस्ति आदिमवर्णः इति भिन्नः तत्र सर्वदा प्रथमवर्णः इति नास्ति अस्तु अग्रिममपि करोतु भगिनि
अच् इति सर्वे स्वराः अकारः इति प्रत्याहारस्य कृते आदिमवर्णः सूत्रे तु अपि प्रथमवर्णः अपि स्यात् अ इ उण् ऋल् ऋक् एवं ऐ औच् चकारपर्यन्तं स्वररहितव्यञ्जनं न गृहीतं भवति अ इ उ ऋल् ऋ ए ओ ऐ औ इत्येव गृहीतं भवति सर्वे स्वराः
तेषां ग्रहणं भवति समीचीनं भगिनि धन्यवादः अस्तु
धन्यवादः
कोऽपि धन्यवादः भगिनि अस्तु अग्रे तत्र वेदा भगिनी भवती पठितवती अत्र
हा महोदय
भवती पठितवती वा अत्र मध्ये तत्र
एकवारं द्विवारं
कवर्गः कवर्गः अस्तु अस्तु अग्रे भवती करोतु भगिनि तर्हि हल् इत्युक्ते
कुत्र आरभ्य अल् हल् अल् अल् हल्
अच् इति कृतं हल्
हल् सर्वाणि हल् इत्युक्ते हल् सर्वाणि व्यञ्जनानि हकार आरभ्य लकारपर्यन्तं हयवरट् लण् न्यमङ्गणनं ढमै घडदश् जबगडदश् खप चटत चटतव् कपै शशसर् हल् लकार ह आरभ्य लकारपर्यन्तं सारे सर्वे व्यञ्जनानि तत्र आगच्छति हल् इत्युक्ते सारे सर्वे सर्वाणि व्यञ्जनानि इति अर्थः भवति
समीचीनं भगिनि समीचीनम् अपि तत्र समीचीनं हल् इत्युक्ते तत्र
हल् इत्युक्ते अकार आरभ्य लकारपर्यन्तं सर्वे सर्वाणि वर्णानि तत्र सम्मिलितम् अस्ति तत्र रुलुक् एवोङ्ग् ऐवोच् इत्यादि स्वरः अपि च व्यञ्जनं सम्मिलित्वा अलः अल् इत्युक्ते सर्वेपि वर्णाः तत्र आयाति तत्र
समीचीनं समीचीनं भगिनि धन्यवादः समीचीनम् अस्तु अग्रे उमा मीनाक्षी भगिनि भूमिनक्षी भगिनी नास्ति वा अस्तु तर्हि तत्र अग्रे नरेश् महोदय अग्रे
आं महोदय अग्रे हश् अस्ति हश् अस्ति पञ्चमप्रत्याहार हयवरट् आरभ्य दशमे प्रत्याहारे तः हयवरट् लण् न्यमङ्गननं जभै घडधश् जबगडधश् एते सर्वे मृदुव्यञ्जनानि सन्ति.
समीचीनम्. अस्तु अग्रे
अग्रे खर् अस्ति. खर् तत्र एकादशप्रत्याहारतः चतुर्दश न त्रयोदश षषसर् तत्र खर् अस्ति. खर् तत्र सर्वे कर्कषव्यञ्जनानि सन्ति.
समीचीनं महोदय. खर् इत्युक्ते कर्कषव्यञ्जनानि. समीचीनम्. अस्तु धन्यवादः महोदय. अस्तु धन्यवादः. अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे.
जश् जश् मध्ये जश् मध्ये जबगड दश तत् तृतीयस्तम्भः अस्ति.
हा समीचीनं भगिनी.
वर्गीयव्यञ्जनेषु तृतीयस्तम्भः अस्ति.
हा
जबगड
इति समीचीनं भगिनि. हा तर्हि तत्र अस्तु समीचीनं. हा तर्हि तृतीय वर्गीयतृतीयव्यञ्जनानि वर्गे प्रत्येकवर्गे
तृतीयव्यञ्जनेषु वर्गीयव्यञ्जनेषु तृतीयस्तम्भः
तृतीयस्तम्भः. समीचीनं भगिनि. अस्तु इति अस्ति समीचीनम्. अपि तत्र अत्र आदिमवर्णः तत्र प्रत्याहारे आदिमवर्णः किं भवितुम् अर्हति तत्र
आदिवर्णः ज
अत्र ज इति अस्ति किन्तु सर्वदा तत्र प्रत्याहारे आदिमवर्ण इत्युक्ते तत्र सूत्रे अपि आदिमवर्णः वा अथवा
आदिमवर्ण किमपि स्वीकर्तुं शक्नुमः. अन्तिमवर्ण हलन्त भवेत् इति
हलन्त नाम सूत्रस्य अन्तिमवर्णः भवेत्.
हा सूत्रस्य आम् आम् आम्
हा सूत्रस्य अन्तिम हलन्तवर्ण हलवर्णं हल इति वर्णः भवेत् नाम व्यञ्जनम् अन्तिमव्यञ्जनं भवेत्. अतः तत्र प्रत्याहारे प्रथमवर्णः यः अस्ति सः वर्णः तत्र सूत्रे प्रथमवर्णः एव इति नास्ति. अन्यः वर्णः अपि भवितुमर्हति. अन्तिमवर्णः नास्ति यद् किन्तु प्रथमवर्णः वा द्वितीयवर्णः भवितुमर्हति. अपि प्रत्याहारे अन्तिमवर्णः सर्वदा सूत्रस्य किमपि सूत्र किमपि सूत्रं
स्वीकृत्य यथा महोदय यथा महोदय यण् सूत्रे य तु महेश्वरसूत्रस्य प्रथमवर्णः नास्ति परन्तु तत्र य व र तथा ल वर्णाः तिष्ठन्ति. यण् प्रत्याहार भवति. पञ्चमसूत्रस्य तृतीयवर्णतः लण् षष्ठसूत्रस्य हलन्तवर्णपर्यन्त
इति अस्ति भगिनि. हा इति अस्ति समीचीनं. हा समीचीनम्. अस्तु अस्तु तर्हि तत्र हा वेदा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि समयः जातः.
आं महोदय. एक ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः
महोदय. क्षम्यताम् अद्य अहं जानन्ती आसम्.